कोऽपि प्रार्थनां कर्तुम् इच्छति वा? पठितम् अस्तु
धन्यवादः. नमस्ते भगिनि.
नमस्ते भगिनि, स्वागतं.
धन्यवादः.
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी. विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः. ॐ सहना भवतु, सहनो भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्.
उत्तमं महोदय, सम्यक्तया पठितवान्. अस्तु. कृष्णो रक्षतु नो जगत्त्रय गुरुः, कृष्णं नमस्याम्यहं. कृष्णे नामरशत्रवो विनिहताः, कृष्णाय तुभ्यं नमः. कृष्णादेव समुत्थितं जगदिदं, कृष्णस्य दासोऽस्म्यहं. कृष्णे तिष्ठति सर्वमेतत् अखिलं, हे कृष्ण रक्षस्व मा. मिलित्वा पठामः. कृष्णो रक्षतु नो जगत्त्रय गुरुः, कृष्णं नमस्याम्यहम्. कृष्णेनामरशत्रवो विनिहताः, कृष्णाय तुभ्यं नमः. कृष्णादेव समुत्थितं जगदिदं, कृष्णस्य दासोऽस्म्यहम्. कृष्णे तिष्ठति सर्वमेतत् अखिलं, हे कृष्ण रक्षस्व माम्. पुनरेकवारं. कृष्णो रक्षतु नो जगत्त्रय गुरुः, कृष्णं नमस्याम्यहम्. कृष्णेनामरशत्रवो विनिहताः, कृष्णाय तुभ्यं नमः. कृष्णादेव समुत्थितं जगदिदं, कृष्णस्य दासोऽस्म्यहं. कृष्णे तिष्ठति सर्वमेतदखिलम् अखिलं, हे कृष्ण रक्षस्व माम्. स्वतः अर्थं जानन्ति वा? कृष्णः रक्षतु इत्युक्ते मे कृष्णः, प्रार्थनारूपं मे कृष्णः लोट्लकार परन्तु अत्र प्रथमाविभक्तिरूपम् अस्ति चेत् प्रार्थना अथवा अनुज्ञा इति भवति. कृष्णः रक्षतु नः अस्मान् जगत्त्रयगुरुः. जगत्त्रयगुरुः कृष्णः. नः रक्षतु अस्मान् रक्षतु. अहं कृष्णं नमस्यामि. नमः करोमि, नमस्यामि. साधारणतया नमस्करोमि एव वदामः, परन्तु अत्र पुरातनशैली अस्ति. नमस्यामि इति पुरातनशैली. इदानीन्तनकाले नमस्करोमि एव वदामः. कृष्णं अहं नमस्करोमि. कृष्णेन अमरशत्रवः, तादृशशत्रवः विनिहताः आसन्. कृष्णेन इत्युक्ते कृष्णः अमरशत्रून् विनिहृतवान् इति. कृष्णस्य कृष्णाय तुभ्यं नमः. तुभ्यं कृष्णाय नमः इति अहं वदामि. कृष्णातेव इदं जगत् समुत्थितम् अस्ति. कृष्णात् इत्युक्ते कृष्णः रक्षति इति. कृष्णस्य दासः अस्मि अहम्. कृष्णे सर्वम् एतत् अखिलं तिष्ठति. हे कृष्ण मां रक्षस्व. प्रश्नः अस्ति वा अत्र? अस्तु, अग्रे अग्रे सराम. सो अत्र सुभाषितम् एवम् अस्ति, वज्रादपि कठोराणि मृदूनि कुसुमाधरि. नमस्कार भगिनि. लोकात्तराणां लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति. पुनरेकवारं पठामि. वज्रादपि कठोराणि मृदूनि कुसुमादपि लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति. सन्धिं त्यजामः चेत् वज्रात् अपि कठोराणि, कुसुमात् अपि मृदूनि. कानि तानि? कानि? वज्रात् अपि कठोराणि सन्ति, परन्तु कुसुमात् अपि मृदूनि. वज्रम् इत्युक्ते किम्?
एतत्
डैमण्ड्. वज्रम्, वज्रात् अपि कठोराणि इत्युक्ते उदाहरणमस्ति जनकः. जनकः कठोरवाक्येन वा अथवा कठोरबुद्धेन वा न वदति, परन्तु बालकः किमपि दोषं करोति चेत् एतत् सम्यक् नास्ति, पुनः करोतु इति कठोरम् इव वदति. वज्रात् अपि कठोराणि सन्ति, कुसुमात् अपि. कुसुमम् इत्युक्ते कुसुमात् अपि मृदूनि. कुसुमात् अपि मृदूनि इत्युक्ते हृदयं, हृदयस्य विषये अथवा मनः, मनस् सकारान्तपदं, मनसः विषये वदन्ति सुभाषितं. मनः वज्रात् अपि कठोराणि भवन्ति. यत्र दोषं कृतवान्, दोषम् अस्ति, दोषः अस्ति इति कठोरवाक्येन वा, वाक्येन वा अथवा व्यवहारेण वा, पुनः पुनः करोतु, पुनः मा करोतु अथवा बहिः मा गच्छतु इति वयं वदामः खलु, तादृशकठोरं, कठोरम् इव भवति. वज्रात् अपि कठोरः इव भवति, परन्तु बालकस्य व्यवहारं सम्यक् भवतु इति कारणेन एव एतत् कठोरवाक्यम् अथवा कठोरव्यवहारं करोति. एषः साधुः किं करोति? वृश्चिकं, वयं जानीमः खलु एकां कथाम्, एवम् एवम् अस्ति, वृश्चिकः जले पतति, सः पुनः पुनः वृश्चिकं रक्षति. वृश्चिकः किं करोति? दशति, परन्तु सः तत् न पश्यति. किम् एव पश्यति? वृश्चिकः, वृश्चिकं रक्षणीयम् इति बुद्ध्या एव सः करोति. पुष्पात् अपि कुसुमात् अपि मृदूनि हृदयं, मृदूनि हृदयानि सन्ति. कुत्र? साधुजने. लोक उत्तराणां चेतांसि. चेतांसि इत्युक्ते चित्तं, चित्तम् इत्युक्ते मनः, मनः, मनसि लोक उत्तराणां. लोक इत्युक्ते जगत् अथवा जनानाम् उत्तराणां, जनानाम् उत्तराणां चेतांसि. जनाः सन्ति, तेषु जनेषु उत्तरजन इत्युक्ते उत्तम, उत्तमजनानां मनसि, उत्तमजनानां चेतांसि कः हि विज्ञातुम् अर्हति. एकं पश्यामः चेत् तस्य मनः वज्रादिव कठोराः अस्ति वा अथवा पुष्पात् अपि मृदु अस्ति वा इति न द्रष्टुं शक्नुमः. अत्र उत्तम उदाहरणमेव अस्ति. इत्युक्ते जनकः सम्यक्तया पालयति. कठोरवाक्यानि अथवा कठोरव्यवहारं कृत्वा सम्यक्तया पालयति. अत्र अपि साधु सम्यक्तया वृश्चिकं रक्षति. परन्तु साधारणजनं दृष्ट्वा तस्य मनः कठोरबुद्धि अस्ति वा, मनसि कठोरबुद्धिः अस्ति वा, कठोरबुद्धिमान् वा अथवा मृदुबुद्धिवान् वा इति ज्ञातुं न शक्नुमः. अतः जागरूकतया भवामः इत्यपि वयं स्वीकर्तुं शक्नुमः. अत्र किं वदति इत्युक्ते महापुरुषाणां चेतांसि अथवा मनसि चित्तम् अथवा मनः कदाचित् वज्रादपि कठोरं भवति, कदाचित् कुसुमादपि मृदु भवति. अतः महापुरुषाणां चेतांसि कः ज्ञातुं शक्नोति? कोऽपि ज्ञातुम् एव न शक्नोति इति सुभाषितम् अस्ति. परन्तु अन्यरीत्या पश्यामः चेत् एकस्मिन् मनः कठोरम् अस्ति वा अथवा मृदु अस्ति वा इत्यपि न ज्ञातुं शक्नुमः. अतः जागरूकतया भवामः इत्यपि अहम् अवगच्छामि. प्रश्नः अस्ति वा अथवा किमपि वक्तुम् इच्छति वा? अस्तु, नास्ति चेत् अग्रे गच्छामः. कथा अस्ति समभावः, पञ्चमा कथा समभावः इति. कोऽपि पठितुम् इच्छति वा?
अहं पठामि भगिनि.
अस्तु, क्रमेण गच्छामः भगिनि. क्षम्यताम्. अस्तु, श्रीनिवासमहोदय प्रथम.
ओके. समभावः. एकं वनं, तत्र कश्चित् ऋषिः, तस्य अनेके शिष्याः. कदाचित् ऋषिः एवम् उपदेशं कृतवान्, सर्वप्राणिषु अपि भगवान् अस्ति, पशु पक्षी मानवाः सर्वे भगवत्स्वरूपाः, अतः सर्वेषु आदरः अपेक्षितः, समभावः च अपेक्षितः इति. Should I explain also? Okay. एकः वने एकः ऋषि अस्ति. ऋषि तस्य शिष्याः
सन्ति,
शिष्याः अपि सन्ति. ऋषिः शिष्या उपदेशं करोति सर्वप्राणिषु. भगवान् सर्वप्राणिषु अस्ति. पशु पक्षी मानवाः सर्वैः भगवत्स्वरूपाः. अतः वाट् इस् अपेक्षितः?
अपेक्षितः मीन्स् एक्स्पेक्टेड्, नीडेड्, एसेन्शियल् इति.
अच्छा, ओके. So, sarveshu adarah abheshadah. Everything, everyone is respected.
Samabhavah. 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 Itikte. Kim?
Equal. All are equal.
All are equal. Samabhavah. Itikte. एकः मम शत्रुः एकः मम मित्रम् इति न पश्यतु, समभावेन पश्यतु इति.
ईक्वल्
आम् समभावः, अस्माकं भावः समः भवतु, समभवतु, समभावेन पश्यतु. मित्रम् एकः मित्रं मम मित्रं शत्रुः, अयं निजः परो वेति इति पठितवन्तः खलु, तादृशं मा पश्यतु, समभावेन पश्यतु. किमर्थम् इत्युक्ते सर्वेषु भगवान् अस्ति. सो अत्र क्रियापदमेव एव नास्ति, परन्तु वयम् अनुमानं कर्तुं शक्नुमः खलु. एकं वनम् अस्ति, तत्र एकः ऋषिः अस्ति, तस्य अनेकाः शिष्याः आसन् इति वयम् अनुमानं कर्तुं शक्नुमः. अन्य किम् अस्ति, एकवारं पश्यामि. कदाचित् इत्युक्ते एकदा, पशुपक्षिमानवाः सर्वे भगवत्स्वरूपाः एव, एतादृशं वयं योजयितुं शक्नुमः. अस्तु, अग्रे चम्पा भगिनी. धन्यवादः महोदय. चम्पा भगिनी, अस्तु. जयश्री भगिनी, अग्रे.
आं भगिनि, एकदा एकः शिष्यः कार्यार्थम् आश्रमतः बहिः गतवान्, तदा कश्चन कलोहलः श्रुतः, सर्वे कोलाहलः श्रुतः, सर्वे धावन्तु, कश्चन मदोन्मत्तः गजः आगच्छन् अस्ति, शीघ्रं शीघ्रम् इति. एकदा एकदा शिष्यः एकः शिष्यः आश्रमतः बहिः कश्चन कलोहलः श्रुतः, धावन्तु सर्वे धावन्तु, एकः गजः आगच्छन् इति श्रुतः.
शीघ्रं शीघ्रं धावन्तु इति श्रुतः. सम्यक् भगिनि. सो अत्र व्याकरणरीत्या पश्यामि. कार्यार्थम् आश्रमतः बहिः इति पदमस्ति चेत् पञ्चमी विभक्ति भवति. बहिः आश्रमतः बहिः गतवान्, तदा कोलाहलः श्रुतः. श्रुतः इति क्त प्रत्यय, तव तु प्रत्यय अस्ति श्रुतवान् इति. सो अत्र क्त प्रत्यय साधारणतया कर्मणि प्रयोगे एव भवति. सो अत्र अपि कर्मणि प्रयोगः एव, कर्तृपदं नास्ति. कर्मपदं प्रथमाविभक्तिरूपे भवति, कोलाहलः श्रुतः इति. सो अत्र कर्तृपदं कथं भवति, शिष्यः बहिः गतवान् तदा
शिष्येन
कोलाहलः श्रुतः. कर्तरि प्रयोगे कथं भवति, शिष्यः
कोलाहलं श्रुणोति,
श्रुतवान्. सो अत्र त प्रत्यय भूतकालं सूचयति, भूतकालं. सो अतः शिष्यः कोलाहलं श्रुतवान् अथवा शिष्येन कोलाहलः श्रुतः अथवा केवलं कोलाहलः श्रुतः. अत्र कोलाहलः श्रुतः एव अस्ति. अत्र आं श्रुतः इस् द पास्ट् टेन्स् लैक् गतवान् श्रुतवान् लैक् दट्. श्रुतवान् इति अस्ति चेत् कर्तरिप्रयोगे एव भवति. शिष्यः श्रुतवान्. शिष्यः किं श्रुतवान्? शिष्यः कोलाहलम्. अत्र द्वितीयविभक्तिरूपं भवति. कोलाहलं श्रुतवान्. परन्तु
अस्ति चेत् श्रुतवान्
श्रुतवान् एव भवति.
भगिनि, पासिबल् टु सी से बहिः गतः?
हा, गतः. देन् इट् हस् बि शिष्येन बहिः गतः.
शिष्येन, ओके.
परन्तु द गत्यर्थ इट्स् अ गुड् क्वश्चन् भगिनी. गत्यर्थक धातु. सो द गत्यर्थक इट् हेस् सम् स्पेशल् रूल्स्. गत्यर्थक अस्ति चेत् कर्तरिप्रयोगे अपि त प्रत्ययम् उपयोगं कर्तुं शक्नुमः. शिष्यः गतः. सम्यक् सम्यक् भवति. शिष्यः बहिः गतः सम्यक् एव. परन्तु साधारणतया तथा न भवति. गत्यर्थकधातु अथवा किं
गमगच्छ धातु भगिनि?
गमगच्छ धातु गत्य विजस्य गत्यर्थक. बिकास् अदर् धातु आल्सो हेस् द सेम् मीनिङ्ग्. गति अर्थ.
एनिथिङ्ग् देट् हेस् अ सिमिलर्
अर्थ मीनिङ्ग् लैक् आनयति, लैक् आल् दोस् थिङ्ग्स् आल्सो. अपि च अकर्मकधातु, यु नो, वि विल् डू इन् मोर् डीटेल् लेटर्. परन्तु वेन्वर् ऐ सी ऐ पायिण्ट् औट्. सो अत्र गत्यर्थकधातु अपि च अकर्मकधातु एतादृशम् अस्ति चेत् कर्तरिप्रयोगे अपि त प्रत्ययम् उपयोगं कर्तुं शक्नुमः. अस्तु, कश्चन धन्यवादः भगिनि. मदोन्मत्तः गजः इत्युक्ते अर्थः कः? मदु उन्मत्तः. मदं पिडिच याने. सो इट् मीन्स् लैक् अ म्याड् एलिफेण्ट्, रैट्? इट्स् वेरि कामन्. मदोन्मत्तः गजः आगच्छति चेत् वयम् इतस्ततः धावनीयम् एव. वयं न, अस्माभिः धावनीयम् एव. अस्तु, शीघ्रं शीघ्रम् इति श्रुतवान्. अस्तु
भगिनि, आगच्छन् साउंडेड मोर लाइक अ भूतकालं.
न, आगच्छन् इति शत्रुरूपं. शत्रु इत्युक्ते क्रियायाः आरम्भः अभवत् परन्तु समाप्तिः न अभवत् इति. कण्टिन्यूस् परन्तु कण्टिन्यूस् इति न वदामः. सो वी डोण्ट् काल् इट् ऐ यूस् टु काल् इट् प्रेसेण्ट् कण्टिन्यूस्. परन्तु प्रेसेण्ट् कण्टिन्यूस् इति नास्ति. प्रेसेण्ट् इत्युक्ते प्रेसेण्ट् अपि नास्ति. क्रियापदम् क्रियायाः आरम्भः अभवत् परन्तु समाप्तिः न अभवत्. उदाहरणार्थम् आगच्छन् आसीत् अपि भवति. सो अतः प्रेसेण्ट् कण्टिन्यूस् नास्ति.
बट् इट् इस् इन् भूतकालरूपं बहुवचन.
न, सो अत्र गजः आगच्छन् एकवचनं. आगच्छन् गजाः आगच्छन्तः इति भवति भगिनि.
आगच्छन्तः
इस् लैक् द भवान् शब्दः. भवन्तौ भवन्तः. परन्तु अत्र भवान् इति न भवति, पचन् इव. पचन् पचन्तौ पचन्तः. आगच्छन् आगच्छन्तौ आगच्छन्तः इति भवति. शीघ्रं शीघ्रम् इति किम्? आगच्छन् इति शत्रुप्रत्ययः. अस्तु, धन्यवादः. लता भगिनी अग्रे.
आं भगिनि, सर्वे इतस्ततः धावितवन्तः, किन्तु सः शिष्यः तत्रैव स्थितवान्. सः एवं चिन्तितवान्, गजः अपि बहवः स्वरूपः, अतः किमर्थं भयं, किमर्थं धावनम् इति. सर्वे शिष्याः गज आगच्छन् इति श्रुत्वा इतस्ततः धावितवन्तः, किन्तु यः शिष्यः यः शिष्यः आश्रमं बहिः गतवान् एव स्थितवान् सः चिन्तितवान् गजः अपि भगवत् स्वरूप एव अतः अहं न एतत् तदा दावामि मम भयं नास्ति इति चिन्तितवान्
सम्यक् सम्यक् सो अत्र गुरुः एवम् उक्तवान् खलु सर्वेषु भगवान् अस्ति इति यः अपि भगवत्स्वरूपः एव अतः मां किमपि न करोति इति सः चिन्तितवान् अस्तु सम्यक् अस्तु अग्रे सन्ध्या भगिनि
तदा दूरे गजः दृष्टः तस्य उपरि हस्तिपकः आसीत् हस्तिपकः शिष्यं दृष्ट्वा पुनः उच्चैः उक्तवान् शीघ्रं धावतु शीघ्रम् इति तथापि शिष्यः न धावितवान् तत्र एव स्थितवान् तदा गजः शुण्डया शिष्यं गृहीत्वा दूरे क्षिप्तवान् शिष्यस्य शरीरं व्रणमयं जातम् शिष्यः प्रज्ञाशून्यः सञ्जातः अनन्तरम् अन्यशिष्याः तम् आश्रमं नीतवन्तः उपचारमपि कृतवन्तः तत्पश्चात् सर्वे दूरे गजः दृष्टवन्तः तस्य ते दृष्टवन्तः गजस्य उपरि हस्तपकः आसीत् इति
हस्तिपकः इस् अ हस्तिपालकः सो देयर् वास् समबडी आन् टाप् आफ् द एलिफेण्ट् उपरि गजस्य उपरि हस्तिपकः हस्तिपालकः आसीत् परन्तु सः किमपि कर्तुं न शक्तवान् किं महोदय ओ एवं वा न जानन्
हस्तिपालकः अपि उक्तवान् सर्वे शीघ्रं धावतु इति यद्यपि हस्तिपालकः इति उक्तवान् तथापि शिष्यः न शृणोति कुत्रापि न धावितवान् तत्र एव स्थितवान् तत्र एव तिष्ठवान्
स्थितवान् एव
स्थितवान् तिष्ठवान् वुड् बि स्टाण्डिङ्ग् भगिनि और्
नो नो बिकास् द धातु इस् स्था धातु
ओके
सो इट् हेस् टु बि ओन्लि दिस् फार्म् स्थितवान् एव परन्तु वर्तमानकाले तिष्ठति
ओके स्थितवती स्म उद्योगे
तिष्ठति स्म
तिष्ठति स्म ओके तिष्ठति स्म गजः शुण्डेन सह शुण्डेन शिष्यं
शुण्डा इति अस्ति सो शुण्डया शुण्डया
तृतीया उद्दि शुण्डया ओके
शुण्डया शुण्डा इति नाम शुण्डया
ओके ओके गजः शुण्डया शिष्यं गृहीतवान् दूरे क्षिप्तवान् शिष्यः बहु व्रणमयं जातम् प्रज्ञा अपि जातम् अन्यशिष्याः शिष्यः
एतं शिष्यम्
एतं शिष्यम् आश्रमं नीतवन्तः
नीतवान्
वृणः उपचारं कुर्वन्ति स्म
कुर्वन्ति स्म सम्यक् सम्यक् अत्र हस्तपकः हस्तस्य उपरि हस्तिपकः क्षम्यतां हस्तिपकः गजस्य उपरि आसीत् सः पुनः उच्चैः उक्तवान् शीघ्रं तावत् शीघ्रं शीघ्रम् इति परन्तु सः न श्रुतवान् तत्रैव स्थितवान् न धावितवान् शुण्डया अवगच्छन्ति खलु अस्तु अग्रे गच्छामः शारदा भगिनी सो अत्र प्रज्ञा जाता शरीरं शिष्यं परन्तु शिष्यः व्रणमयं प्रज्ञा शून्यः सञ्जातः इत्युक्ते
शिष्यस्
अस्तु सम्यक् सम्यक्
So if you want to say the consciousness went, we'll have to say pragya jata, not
jata. So atra pragya shunya, so there was no pragya. Pragya jata. Another way to say, tavateva. Agre, Sharada Bhagini? Dhanyavada Bhagini.
Guruhu shishyam prishtavan, matsa gajam drishtva, अपि किमर्थं तत्रैव स्थितवान् भवान् इति शिष्यः उक्तवान् आचार्य गजः अपि भक्तस्वरूपः किल अतः भयं नास्ति इति अहं चिन्तितवान् इति
भगवत्स्वरूपः
गुरुः शिष्यं पृष्टवान् गजं दृष्टवान् किल परन्तु किमर्थं तत्र एव स्थितवान् इति शिष्यः उक्तवान् आचार्य त्वं गजः अपि भक्तस्वरूपः इति उक्तवान् किल
भगवत्स्वरूपः इति उक्तवान् किल
अतः अहं न धावितवान् इति मास्तु इति न धावितवान्
सम्यक् भगिनि धन्यवादः
नमस्ते भगिनि
स्वागतं गोपिका स्वागतं
धन्यवादः
सविता भगिनी अग्रे
आं भगिनि तदा गुरुः पृष्टवान् एवं वा तर्हि हस्तिपकः अपि भगवत्स्वरूपः किल तस्य वचनं किमर्थं न लक्षितम् इति आचार्य भगवत्स्वरूपेषु किमर्थम् एषः भेदभावः एकः शुभम् उपदिशति अन्यः मारयति एवं किमर्थम् इति कुतूहलेन पृष्टवान् शिष्यः गुरुः पृष्टवान् हस्तिपकः अपि भगवत्स्वरूपं हस्ति गजः भगवत्स्वरूपं तस्य वचनं किं न लक्षितवान् हस्तिपकः उक्तवन्तः धावितवान् त्वं धावितवान् किं न त्वं लक्षितवान् इति गुरुः पृष्टवान्
लक्षितम् इत्युक्ते अर्थः भगिनि
तस्य वचनं किमर्थं यु डिन् लैक् यु डिन् हियर् टु हिम्
लक्षिता
You didn't care for that.
अस्तु सम्यक्
शिष्यः वदति आचार्यः भगवत्स्वरूपेषु किमर्थम् एष भेदभावः हस्तिपकः किं वदति
शुभम् उपदिशति
अन्यः मारयति गजः मारयति हस्तिपकः शुभम् उपदिशति एवं किमर्थम् इति शिष्यः वदन्ति इति कुतूहलेन पृष्टवान् शिष्यः कुतूहलेन पृष्टवान् शिष्यः गुरुतः पृष्टवान्
सम्यक् उत्तरं ददातु
दट् इस् इस् नाट् एबल् टु डिफ्रेन्शियेट् बिट्वीन् द इण्टेन्शन्स् आफ् द महवत् अण्ड् द एलिफेण्ट्
किमर्थं वदतु इति ज्ञातुम् इच्छया कुतूहलेन अहं ज्ञातुम् इच्छामि किमर्थम् इति पृष्टवान् सम्यक् भगिनि उर्मिला भगिनी अग्रे
भगिनि
आम् भगिनि
आं भगिनि
एकनिमिषं भगिनि सन्ध्या भगिनि प्रश्नं पृच्छति पृच्छतु
एक्साक्ट् मीनिङ्ग् आफ् लक्षितं भगिनि Listen or pay attention or give importance.
Lakshitam generally means see, to see. Why didn't you see like that? Parantu atra, why didn't you pay attention? I did not see the aham mayana lakshitam. I did not notice.
Okay. Notice. Why did you heed to what he told?
Heed, notice. See all those things, Lakshitam. So, Sandarbhanusaram, the meaning changes slightly like that.
Okay. And what is the primary dhatu there? Lakshati, is it?
Aham chintayami, Lakshiti. Pashyam.
Okay.
Dhanyavad. Urmila Bhai.
Lakshitam iti lot lakar.
Lakshitam iti... इति अर्थ प्रत्यय लक्षितवान् लक्षितम् इति भवता न लक्षितम् प्रत्यय
भगिनी साधारणप्रयोगः कथं भवति लक्षयति वा
अहं दृष्ट्वा एव वदामि भगिनि एकनिमिषं पश्यामः अत्र कुत्र अस्ति अस्तु अहमत्र लिखामि अष्टाध्यायी
लक्षिति धातुः अस्ति भगिनि
लक्ष्यक्टिव् न
Dictionary.
So, atra lakshiti asti, to observe, see, look, mark, all these things, bhagini. So, atra lakshiti drishtva, and kridanta rupam pashyamaha che, lakshita iti ta pratyaya bhavati. Lakshitaha lakshita lakshitam iti. Lakshitavan iti bhavati. Kartari prayoye lakshyati. आत्मनेपदी अपि अस्ति अतः उभयपदी रूपम् लक्षिति साधारणतया पश्यामः नोटिस् इति अस्ति
लक्षणं भिन्नः खलु लक्षणं
भिन्न
अस्तु
उदाहरणं धातोः लक्षणं किम् इति वदामः चेत् तत्र किं वदामः धातोः लक्षणं लिङ्गभेदः नास्ति इति तादृशलक्षणं भवति
लक्षणं
प्रापर्टि लक्षणं
धन्यवादः
धन्यवादः भगिनि अस्तु उर्मिला भगिनी अग्रे
अस्तु तदा गुरुः वत्स लोके सर्वं जलं गङ्गा इति पूज्यम् अस्ति तथापि यथा नदीजलं पानयोग्यं तथा समुद्रजलं किं पानयोग्यं योग्यम् इति प्रतिप्रश्नं कृतवान्। न हि आचार्य, समुद्रजलं न पानयोग्यम् इति उत्तरं दत्तवान् शिष्यः।
अस्तु भगिनि, वदतु।
सो अत्र गुरुः प्रश्नं शिष्यं प्रश्नं पृच्छति, वत्सः सरां जलं गङ्गा इति सर्वे पूजयन्ति, किन्तु नदीजलं पानं करोतु पानं कर्तुं शक्यते, किन्तु समुद्रजलं पानं कर्तुं न शक्यते इति प्रश्नं प्रतिप्रश्नं गुरु पृष्टवान्। तर्हि शिष्यं वदति, उक्तवान्, महि आचार्य, समुद्रजलं पानयोगं नास्ति।
उत्तम, जलं सर्वत्र जलं जलमेव खलु, नदीजलं वयं पातुं शक्नुमः सम्यक् अस्ति। सो पानयोग्यं पानयोग्यं पातुं शक्नुमः वयं, परन्तु समुद्रजलं पातुं न इच्छामः, किमर्थं भेदः इति। अस्तु, अग्रे उषा भगिनी।
Bhagini, I didn't understand. The second word is being used in this sentence, right? Tathapi yatha nadi jalam pana yogyam. Is it? I thought it should say pana ayogyam, right? And the second word?
No. Tathapi yatha nadi jalam pana yogyam. Tatha samudra jalam kim pana yogyam. Like that. Pana yogyam va.
Is it worth drinking? Okay.
Like... Just like how, yatha nadi jalam pana yogyam, tatha samudra jalam api pana yogyam va, iti.
Okay, okay.
Iti prashna. Astu, Usha bhagini.
Evam eva sarve bhagat swarupaha, teshu bhedabhava mastu. Kintu, atra sadhu bhaktaha, abhaktaha iti bhedaha tu asti eva. इति उपदिष्टवान् गुरुः। अत्र साधुः भक्तः अभक्तः इति भेदः तु अस्ति एव इति उपदिष्टवान् गुरुः। ओ, सो इट्स् द सेम् विद् दि गुड् पर्सन् आर् अ डिवोटि आर् अ नान्
साधुः दुष्टजनः भक्तः अभक्तः इति भेदः तु अस्ति एव।
हौ डु Translate
over
to here, what does it mean? I always thought it was only but it's more than that, right?
It is like but vedah tu but yeah it is like but eva.
Okay, because in the dictionary they show different ways of using that word.
We have to understand with the context atra.
Okay,
kintu is also like but.
भिन्नेषु अपि समभावः आवश्यकः, इदं सज्जनलक्षणम्। भिन्नेषु अपि समभावः आवश्यकः, सो इन् अदर् आर् यु देयर् भगिनी?
ऐ एम् हियर् भगिनी।
भिन्नेषु अपि समभावः आवश्यकः, इदं सज्जनलक्षणम्।
भिन्नेषु मीन्स् अत्र भेदः अस्ति खलु, तत्रापि समभावः आवश्यकः।
ओ, इवन् दो देर् इस् डिफ्रेन्सस् देर् इस् अ नीड् टु बी इक्वानिमस् ओर् इक्वल् मैण्डेड्
परन्तु अत्र वि काल् इट् डिस्क्रिमिनेशन् खलु, विवेकः अपि आवश्यकः इत्युक्ते यत्र धावनीयं तत्र धावतु। अत्र हस्तिपालकः वदति धावतु इति, परन्तु सः हस्तिपालकस्य वचनं न लक्षितवान्। किमर्थं न लक्षितवान्? सो भेदः कः इति झटिति जानातु इति सः बोधयति. अन्य कोऽपि वक्तुमिच्छति वा? भिन्नेषु अपि समभावः आवश्यकः, इदं सज्जनलक्षणं. विष्णुमहोदय अग्रे वक्तुमिच्छति वा?
आम् भगिनि, एक श्लोक भवति गीता पञ्चम अध्याये. ब्राह्मणे गविहस्तिनि शुनि चैव स्वपाके च पण्डिता समदर्शिनः. तत्र अहं चिन्तयामि सम्यक् भावः सर्वे ब्राह्मणे गवि काव् हस्तिनि एलिफण्ट् शुनि चैव ऐ गेस् डाग् एण्ड् आल् देट् पण्डिता समदर्शिनः इति अहं मन्ये.
चाप्टर् फैव् श्लोकः कः महोदय?
अध्याये अष्टादश श्लोकः.
अष्टादश श्लोकः अस्तु, धन्यवादः महोदय.
What is the difference between saying na acharya and na hi acharya?
Na hi means emphasis, naiva, like that.
Naiva, okay.
Definitely not.
Okay. Thank you.
इतोपि अधिकम् आवश्यकम् इति अहं चिन्तयामि. सज्जनलक्षणं किं? सज्जनलक्षणम् इत्युक्ते भिन्नेषु अपि समभावः आवश्यकः इत्युक्ते अर्थः कः? अस्मिन् अस्यां कथायां किम् आसीत्? भिन्नेषु अपि समभावः आवश्यकः.
भेदः मा करणीयः वा
इति सः बोधयति वा? भेदः अस्ति अतः भवान् झटिति जानन्तु, तत् आधारेण व्यवहारं करोतु इति.
व्यवकारसमये भिन्नक आवश्यकम्
आवश्यकसमये
परमार्थिकसमये भिन्नः न आवश्यकं.
सम्यक्. समभावः यत्र करणीयं तत्र करोतु. दुष्टः आगच्छति चेत् धावतु, निश्चयेन धावतु. दुष्टः अस्ति, अहं न धावामि, सः भगवान् मां तस्य समीपं स्वीकर्तुम् आगच्छति इति मा चिन्तयतु. तथा नास्ति इति अहं चिन्तयामि. यत्र समभावः आवश्यकः तत्र करोतु, नो चेत् भिन्नम् आचरतु इति अहं
चिन्तयामि.
न पश्यामि अष्टादश श्लोके.
थिङ्क् रेशनलि मेबि समभावः तत्र नास्ति, परन्तु सः समभावः अस्ति खलु तत्र. सः चिन्तयति शुनकः अपि समानम् एव इति न वा?
शुनकः ब्राह्मणः धेनुः. ओके,
अत्र सर्वत्र समभावः समभावं समभावेन पश्यतु इति श्लोकं वदति. परन्तु आपत्काले तादृशं मास्तु अत्र खलु. अत्र आपत्कालः आगच्छति इत्युक्ते गजः आगच्छति, तादृशसमये समभावेन मा पश्यतु.
भगिनि, दिस् रिमैण्ड्स् मी आफ् अनदर् स्टोरि वेर् द सर्पेण्ट् वास् बीङ्ग् बीटन् एण्ड् साधु वास् पासिङ्ग् बै एण्ड् हि सेड् वै आर्न्ट् यू he said why aren't you doing anything about it, and he said, well, I'm not supposed to bite. So he said, but at least you can hiss.
Yeah.
And you remember that story? Similar to that. In practicality, you have to do things like
we have to be practical. Yeah. Yes, exactly. So, I don't quite understand the last one. Bhinneshu api samabhavah avashakah. Tata, so, atra, the kim uttavan, evam sarve भगवत्स्वरूपाः एव तेषु भेदभावः मास्तु किन्तु किन्तु अत्र साधुः भक्तः अभक्तः इति भेदः तु अस्ति एव अतः सर्वदा समभावः न आवश्यकः
So he's saying it is necessary to have equality, even though there is differences.
Katam tat katam bhavati. So atra jalam ganga jalam patum icchamaha vayam. Parantu samudra jalam patum na icchamaha. Atah samabhavena na pashyamaha kalo. अतः अहं चिन्तयामि न आवश्यकः इति एव अस्ति वा इति अस्तु अग्रे पश्यामि अस्तु इदानीं वयं गीतासोपानं प्रति गच्छामः
महोदय अत्र भिन्नेषु इति आगच्छति खलु तत् तस्य अर्थः कः
सप्तमी विभक्ति सप्तमी
भिन्ना भिन्नेषु जनेषु वा
भिन्नेषु जनेषु भिन्नेषु प्राणिषु अपि
तथा वयम् उपयोगं कर्तुं शक्नुमः वा भिन्नेषु इति
भिन्नेषु जनेषु सत्यम्
अस्तु
समभावः आवश्यकः यथा यदा आपत्कालः नास्ति इत्युक्ते अस्माकं समीपे किमपि वस्तु अस्ति अस्माकं पुरतः साधु अस्ति भक्तः अस्ति अभक्तः अस्ति दुष्टः अस्ति वयं दातुम् इच्छामः चेत् सर्वेभ्यः ददातु समं ददातु दट् इस् सो ट्रू परन्तु आपत्कालः आगच्छति चेत् समभावः मास्तु इति मम चिन्तनम् सो अत्र आपत्काले हस्तिपालकः वदति धावतु
सो
हौ इस् देट् इस् वाट् ऐ एम् क्वश्चनिङ्ग्
वन् नीड् टु बि रेशनल् वेन् दे आर्
साधारणतया समभावेन पश्यतु परन्तु आपत्काले किञ्चित् चिन्तयतु चिन्तनमस्ति अपि अस्ति खलु चिन्तयतु समभावः आवश्यकः वा अथवा किं करणीयम् इति चिन्तयतु
भगिनि समथिङ्ग् लैक् इन् एरोप्लेन् दे से बिफोर् हेल्पिङ्ग् अदर्स् इन् putting the oxygen mask first you help yourself and then help others like that
but
I think Bhagini here he is reaffirming the first sentence that he started with in the story
avagatam vadatu mahadaya
adhyaya trayodasha adhyaya madhye ek shloka asti samam sarveshu bhuteshu tishtantam parameshwaram विनश्यत्सु अविनश्यत्वं यः पश्यति स पश्यति सः अत्र गाड् ट्रैङ्ग् टु से देट् वेन् द अदर् एनिमल्स् आर् डायिङ्ग् वि शुड्न्ट् फील् देट् बिकास् गाड् इस् नेवर् डिस्ट्राय्ड् एण्ड् देट् इस् द समभाव
आमां साधारणसमये समभावः सम्यक् एव परन्तु आपत्काले मास्तु इति कथायाः सारांशः खलु
व्यवहारे कुशल
सर्वेषु सन्दर्भेषु तथा मास्तु इति कथा वदति कथायाः सारांशः एवम् अस्ति भिन्नेषु अपि समभावः आवश्यकः एव परन्तु इति किन्तु अत्र साधुः भक्तः अभक्तः इति भेदः तु अस्ति एव इति उपदिष्टवान्
संसारे सम्यक् वा असम्यक् जनाः अस्ति वयं जानीमः भेदः व्यवहारे भेदः कर्तुं शक्नोति परन्तु यदि कदापि कश्चन जनः नश्यतु अहं जानीमः भगवत्स्वरूपः एकः अस्ति सः न नश्यति
सम्यक् सम्यक् महोदय तथा अहम् अङ्गीकरोमि इत्युक्ते अत्र गङ्गाजलं पवित्रजलं तत् वयं पवित्रजलम् इति गृहम् आगत्य पूजामपि कुर्मः परन्तु समुद्रजलं तादृशं नास्ति पानयोग्यं नास्ति इति कृत्वा वयं दोषं न कुर्मः खलु इत्युक्ते तत्र किं गार्बेज् इति न त्यजामः तत्र तादृशम् अत्र गजः आगच्छति मदोन्मत्तः गजः मदोन्मत्तं गजं न मारयामः तादृशं न कुर्मः परन्तु धावामः अत्र समभावः आवश्यकः तादृशसमभावः आवश्यकः एव
भगिनि इवन् आन् चाप्टर् टु कृष्णा टेल्स् अर्जुन वेन् हि इस् स्केर्ड् अण्ड् सीङ्ग् अण्ड् आल् हिस् रिलेटिव्स् हि सेस् हू इस् नोबडि डैस् एव्रिबडि इस् आल्वेस् देर् सो डोण्ट् वरि अबौट् किलिङ्ग् डू योर् ड्यूटि
अस्तु सम्यक् एव धन्यवादः भगिनि सो अत्र अन्ते किं वक्तुम् इच्छामि इत्युक्ते अत्र साधुः अस्ति भक्तः अस्ति अभक्तः अस्ति दुष्टः अस्ति वयं साधुं किम् आनन्देन न आनन्देन पश्यामः दुष्टम् आनन्देन न पश्यामः तादृशभेदः मास्तु परन्तु दुष्टं मारयितुं न मारयितुं न इच्छामः न मा इच्छतु इति न मारयतु इति तादृशसमभावेन पश्यतु इति बोधयति इति अहं चिन्तयामि गुरु
मम स्वास्थ्य चिन्ता आवश्यकम् अस्ति
आम् स्वास्थ्यचिन्ता आवश्यकमेव आम्
यदि यदि अहं समुद्रजलं पिबति मम स्वास्थ्य भङ्ग नद्यां जलः अहं पिबामि स्वास्थ्य योग्यः
सम्यक् सो अतः समुद्रजलं मा पिबतु इत्युक्ते गजः आगच्छति चेत् धावतु परन्तु गजं मा मारयतु तादृशं वदति इति अपि अहं चिन्तयामि गुरुः वदति भक्तः अस्ति अभक्तः अपि अस्ति परन्तु अभक्तः अस्ति चेत् दूरे गच्छतु भक्तं पार्श्वे गच्छतु तमिळ् भाषायां वदति किल दुष्टः अस्ति चेत् दूरे गच्छतु गजः अस्ति दूरे गच्छतु परन्तु मा मारयतु अस्तु दोषं मा करोतु इति अस्तु इदानीं किञ्चित् पठामः वयम् एतत् पठितवन्तः खलु ह्यः परह्यः एतत् वयं जानीमः एतत् अपि कृतवन्तः इदानीम् अपि वयं कृतवन्तः खलु इदानीम् इत्युक्ते वर्तमानकाल किञ्चित् कुर्मः वा कृष्णः कुन्तीं पेज् वा पेज् 75 साहाय्येन अष्टवाक्यानि रचयत कृष्णः कुन्ती किम् अस्तु का वदति विष्णुमहोदय भवान् आरम्भं करोतु
आं भगिनि कृष्णः कुन्ती इदानीं निद्रामग्नः नास्ति
अथवा कुन्ती निद्रामग्नः कुत्र अस्ति नास्मि अति नास्मि इति अस्ति चेत् कर्तृपदं किं भवति
न अस्ति
न न अत्र नास्मि मि इति अस्ति अतः अहम् इति भवति अहं निद्रामग्नः नास्मि अस्तु वा अहं निद्रामग्नः नास्मि अग्रिमं करोतु तं स्मरसि इति अस्ति सि सि इति अस्ति चेत् किं भवति त्वम् इति भवति त्वं तं स्मरसि सम्यक्
इदानीं त्वं स्मरसि
स्मरसि सम्यक् उषा भगिनी जयं वदत
अपि
मध्यमपुरुष एकवचनं वा किं
लोट्लकार एकवचनं
लोट्लकार कथं भवति वदतु वदतां वदन्तु वद वदतां वदत
वद वदतं वदत बहुवचनमस्ति
यूयं 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 जयं वदत सर्वत्र वयम् एतत् द्रष्टुं शक्नुमः रचयत अत्र यूयं रचयत वदत लिखत पठत इति पठ इति एकवचनं त्वं पठ यूयं पठत उर्मिला भगिनी अग्रे
पूजां करोति कृष्णः कुन्तीम् इदानीं पूजां करोति इदानीं पूजां करोति
कुन्ती इदानीं पूजां करोति अस्तु सविता भगिनी अग्रे
सेना इदानीं खिन्नाः सन्ति
सेना इति एकवचनं सन्ति इति अस्ति अतः योद्धारः
इदानीं खिन्नाः सन्ति
खिन्नाः सन्ति खिन्नाः इति विशेषणम् इत्युक्ते क्रियाविशेषणं
खिन्ना व्याकुलं भगिनि
व्याकुलाः व्याकुलाः
सन्ति योद्धारः इदानीं खिन्नाः
सन्ति सम्यक् कथं सन्ति खिन्नाः सन्ति
भगिनि योद्धारः इस् एकवचनम् इस् इट्
न न योद्धा ऋकारान्तपद योद्र
सेना वास् कलेक्टिङ्ग् आल्सो ऐ पुट् सन्ति सेना इदानीं खिन्ना सन्ति
सम्यक्
सेना इस् आर्मि आर्मि इस् इट्
आर्मि आर्मि इस् इति वदामः आर्मि इस्
सेना
स्त्रीलिङ्गं सम्यक् सेना
सीतावत्
भगिनी खिन्नाः सन्ति इट्स् अ क्रियापद विशेषण
न भगिनि न I was going to correct myself adjective atra visheshanam
astu
visheshanam
Graham is worried right
agitated
adjective
no is it back vyakula means agitated or sad
vyakula is adject I mean agitated
okay
kinna hiti dukkha dukita
worried or agitated
worried sad 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 khinnaha itikte dukkhaah dukkitaah
different from vyakula right
bhagini vyakula also means sad isn't it bhagini
evam va astu tarhi
in hindi they say vyakul means it's being sad
okay astu
in hindi it is
okay praya astu agre sharada bhagini
it doesn't mean that in sanskrit it means agitated puzzled confused restless troubled
restless is what I thought too restless agitated
so when does it say sad
astu bhavatah sahayakah smah smah iti asti chet
present
present continuous
no no smah स्म एव तथा भवति स्मः इति केवलं प्रेसेण्ट् प्रेसेण्ट् एव भगिनि प्रेसेण्ट् कण्टिन्यूस् इति नास्ति प्रेसेण्ट् एव सविता भगिनी शारदा भगिनी वक्तुम् इच्छति वा स्मः
कृष्णः
न न स्मः इति अस्ति अहम् अहम् अस्मि वयं स्मः भवतः सहायकाः स्मः वयं भवतः सहायकाः स्मः अस्तु
स्वः स्मः
स्वः अस्मि स्वः स्मः सन्ध्या भगिनि सहायकाः स्वः मीन्स् वि आर् योर् हेल्पर्स् भवतः सहायकाः सहायकाः अपि अड्जेक्टिव्स् एव अस्तु सन्ध्या भगिनी अग्रे
आं भगिनि ऐ थाट् ऐ वुड् मेक् सेण्टेन्सेस् वित् सेना वन् इन् सिङ्ग्युलर् अण्ड् वन् इन् प्लूरल् सेना धीराः भवन्तु सेना सज्जा अस्ति
अस्तु अस्तु सेना सज्जा अस्ति सेना सज्जा सो अत्र विशेषणम् अस्ति सेना सज्जा अस्ति सम्यक् सेना सज्जा अस्ति अस्तु लता भगिनी अग्रे अस्तु अग्रे लता भगिनी
योद्धारः धीराः इदानीं धीराः भवन्तु
सम्यक् योद्धारः इदानीं धीराः भवन्तु योद्धारः बहुवचनं धीराः बहुवचनं भवन्तु बहुवचनं खिन्नाः सन्ति इव सम्यक्
पाञ्चजन्यं भवति
इदानीम् आगच्छति जयश्री भगिनी अग्रे
कृष्णः पाञ्चजन्यं धमति
सम्यक् कृष्णः पाञ्चजन्यं धमति इत्युक्ते किं पाञ्चजन्यं धमति पाञ्चजन्यम् इति काञ्च् खलु तस्य नाम अस्ति पाञ्चजन्यं धमति इत्युक्ते टु ब्लो वयं वदामः खलु उपद्मानीय इति सो अत्र उफ् अस्ति उदाहरणं किं किं
धमति इति साउण्ड्
सो अत्र एवं लिखामः चेत् उपद्मानीय इति उदाहरणार्थं विसर्गः अस्ति अनन्तरं पकारः आगच्छति चेत् विसर्गस्य शब्दः न भवति उफ् इति शब्दः एव भवति इफ् इति शब्दः न न न वेन् द पकार कम्स् वि काल् इट् उपद्मानीय धमति धम like, you know, when we are going to blow, our mouth becomes like that, right?
Yeah.
Tadrisha shabdaha bhavati.
Okay, but you said visarga and then pakara, so I was
right. Supposing, like, you know, like dhiraha, okay? Dhiraha, it doesn't, I mean, vyakarna drishtya samyak nasti parantu. Dhiraha pashyatu, something like that. It's not correct, but I'm just saying example.
So if you're chanting that, you will say dhiraha pashyatu.
Dhiraha, if bhavati.
Yeah. That's why we put an F there.
Yeah, F, but we can also do it like this.
Yeah.
Again, dhamati iti manye makes a loud sound.
Sound. Blowing.
Or blows.
Blows. Blowing evam bhavati. So similarly, visargaha asti anantaram ka atava kha asti che visargasya sthane api evam likamaha vayam. So atra ha bhavati. Ityukte jihvamuliya. It's called jihvamuliya. Jihva, it starts from the base of the throat, kalo. So the sound is h eva.
So
dhirah katayati, like that. Dhirah katayati.
You say it is padmaniya, and then you said the other word is what?
Jihva muliya.
So which is jihva muliya here now? You're saying this.
Jihva mulya is when we have the visarga followed by a ka or a kha.
Oh,
then we say jihva mulya. So we do not pronounce the visarga. Visarga ucharanam na bhavati. Kevalam kha shabda eva.
Only for ka and pa that we...
The ka and kha and pa and pa.
Okay.
Pa and ka kha. Evam, evam bhavati.
Okay.
Pa bhagini, pa.
Pa and then pa, chamyata. Pa and then pa, atava ka and then ka. Asti che, ka, asti che, jihva muliya.
So this rule is, this word is used only when the visarga is followed by ka or pa.
Ka or pa, pa. Jihva mulya if it is followed by kaka, and then upadmaniya if it is followed by papa.
Okay.
Upadmaniya itikte when we are getting ready to blow. Sata. Sound will come. That is like fuck, like an F.
Oh, so
and this is the symbol for it.
So nice. I never understood what these two terms meant.
Yeah, jihva mulya and upadmaniya. This comes with the visarga sandhi. Astu, agre gachamaha. Yatodaha vakyani prachayata. So atra udaharanam asti. Agre ka asti gopika bhagini. Patat bhagini kripaya.
Aam bhagini. Mama udvani shruyate va?
Aam.
उदाहरणं वा पूर्वं दुर्योधनः हस्तिनापुरं
पूर्वं दुर्योधनः कर्ता हस्तिनापुरं कर्मपदं कुरुक्षेत्रम् अन्यकर्मपदम् अस्तु अग्रे अपि पठतु भगिनि न शृणुमः भगिनि गोपिका भगिनि अन्म्यूट् करोतु म्यूट् मध्ये एव अस्ति भवति कापि समस्या इति चिन्तयामि क्षम्यतां भगिनि अग्रे गच्छामि चम्पा भगिनि
आं भगिनि पूर्वं दुर्योधनः हस्तिनापुरं कुरुक्षेत्रं पूर्वं दुर्योधनः हस्तिनापुरे आसीत् इदानीं कुरुक्षेत्रे अस्ति.
सो अत्र भूतकालं वर्तमानकालं स्वीकृत्य लेखनीयं वाक्यद्वयं. सो अत्र एकम् एवम् अस्ति, अन्यत् एकम् एवम् अस्ति. सो अत्र यथोदाहरणं यथा उदाहरणं तथा वाक्यानि रचयत. रचयत इति अस्ति चेत् यूयं यूयं रचयत. अस्तु भगिनि, प्रयत्नं करोतु. अभिमन्यु
पूर्वम् अभिमन्युः बालकः अस्ति
आसीत्
इदानीं युवकः अस्ति.
सम्यक्, पूर्वम् आसीत् इदानीम् अस्ति. सो अत्र मुख्य अंशः कः आसीत्? बहुवचनं किम् आसीत्?
आसीत् आस्ताम् आसन्
आसन् आसन् आसीत् आस्ताम् आसन्. इदानीम् अस्ति वयं जानीमः, अस्ति
स्तः सन्ति
अस्ति
अस्ति साम् सन्ति
सन्ति. अस् धातु भगिनि. सो दिस् इस् आल् अस् धातु. सो अत्र लकारः लट् लकारः, एतत् अस्ति लट् लकार, एतत् अस्ति लङ् लकारः. सो अत्र पश्यतु पुटसङ्ख्या अत्र एवं 74 आसीत् इति भूतकालरूपम् आसीत्, परन्तु अत्र नास्ति. एवं वा? अस्तु, भविष्यत्काले लृट् लकार. सम्यक्, धन्यवादः महोदय. सो अत्र अस्ति स्तः सन्ति वर्तमानकाल प्रथमपुरुष. असि स्तः स्त, अस्मि स्वः स्मः, एवं वर्तमानकाल. भूतकाले एवम् अस्ति, आसीत् आस्ताम् आसन् आसीः, किञ्चित् भिन्नरूपम् आस्तम् आस्त, परन्तु इदानीं प्रथमपुरुष एव पश्यामः वयम्, अपि च उत्तमपुरुषः एव. अस्तु, अत्र कृत्वा अग्रे आगच्छामः. अस्तु, अग्रे करोतु चम्पा भगिनी. कृतवती श्रीनिवास महोदय अग्रे.
युद्धारम्भे अर्जुनः खिन्नः सन्तुष्टः. युद्धारम्भे अर्जुनः खिन्नः आसीत्, इदानीं सन्तुष्टः अस्ति.
सन्तुष्टः अस्ति. सो अत्र सः सन्तुष्टः, सा अस्ति चेत्
सन्तुष्टा.
एवम् अत्र अपि खिन्नः खिन्ना एवं भवति. अस्तु, अग्रे
भगिनि. क्षम्यताम्, अहं बहिः आसम् अतः.
ओ एवमेव,
इदानीं करोमि.
अस्तु, अग्रिमं करोतु. धन्यवादः.
आं भगिनि. हृषीकेशः उत्तरप्रदेशः उत्तराखण्डः. पूर्वं हृषीकेशः उत्तरप्रदेशे आसीत्, इदानीम् उत्तराखण्डे अस्ति.
अस्ति, सम्यक्. उत्तरप्रदेशे सम्यक् आसीत् अस्ति, सम्यक्. जयश्री भगिनि.
आं भगिनि. इतः पूर्वं द्वापरयुगं कलियुगम्. इतः पूर्वं द्वापरयुगं
अत्र अपि इतः पूर्वम् इतः पूर्वम्
इतः पूर्वं द्वापरयुगं आसीत् द्वापरयुगः आसीत् इदानीं कलियुगः अस्ति
युगमेव सर्वत्र प्रथमाविभक्तिरूपमेव अस्ति सम्यक् भगिनि लता भगिनि अग्रे
आं भगिनि भीष्मः पूर्वं युद्धक्षेत्रं शरश्रिया भीष्मः पूर्वं युद्धक्षेत्रे आसीत् इदानीं शरशय्या अस्ति
शरशय्या कथं
शरशय्याम् अस्ति
सप्तमी विभक्ति कथं भवति उदाहरणार्थं नदी अस्ति चेत्
नद्यां
पाठशाला
शरशय्याम् अस्ति
पाठशाला कथं भवति
पाठशालायाम्
अत्र शरशय्यायां अस्ति
सीतावत् वा
हलो नमस्ते
शरशय्या इति सीतावत् वा
आं सीतावत् आं सीतावत् आकारान्त स्त्रीलिङ्गपदम् शरशय्यायाम् इत्युक्ते शय्या इत्युक्ते बेड् खलु शरशय्या एवं सः शयनं करोति इति शरशय्यायां बेड् आफ् एरोस् इति अस्तु अग्रे
तृतीयविभक्ति
शरशय्यायां खलु सो सप्तमी एव
सप्तमी
भीष्मः पूर्वं युद्धक्षेत्रे आसीत् इदानीं शरशय्यायाम् अस्ति अग्रे
अत्र शराणां शय्यायां भवति
शराणां शय्यायां
अस्तु
समस्तपदमस्ति शराणां शय्यायाम् अस्तु अग्रे सन्ध्या भगिनी समास अत्रापि युद्धक्षेत्रं
युद्धस्य क्षेत्रम्
एवं भवति अस्तु सन्ध्या भगिनी अग्रे
पाण्डवाः वनम् इन्द्रप्रस्थः पूर्वं पाण्डवाः वनम् आसन् वने आसन् इदानीं इन्द्रप्रस्थे
सम्यक् अस्तु शारदा भगिनी
कर्णः सामान्यः पूर्वं कर्णः सामान्यः इदानीम् अङ्गराजः
पूर्वं कर्णः सामान्यः आसीत् इदानीं सः अङ्गराजः
अस्ति
अस्तु सम्यक् सविता भगिनी अग्रे
आं भगिनि युयुत्सुः कौरवपक्षीयः पाण्डवपक्षीयः पूर्वं युयुत्सुः कौरवपक्षीयः आसीत् इदानीं पाण्डवपक्षीयः
न इदानीम् इत्युक्ते वर्तमानकाले
इदानीं पक्षीयः अस्ति सम्यक् भगिनि
सम्यक् एव सो अत्र पक्षीयः देशीयः इति
कौरवपक्षी आसीत् पाण्डवपक्षी
अत्रापि सम्यक् एव अत्र सौ पूर्वं पश्यतु पूर्वस्मिन् उदाहरणे कर्णः सामान्यः सामान्यः सो अत्र विशेषणविशेषभावः स अब्जेक्ट् पक्षीयः सम्यक् एव पक्षीयः सो अत्र पक्ष इति अस्ति चेत् पक्ष पक्ष इति अस्ति युयुत्सुः मीन्स्
भगिनी शाले टेल् दिस् वन्स् मोर् पूर्वं युयुत्सुः कौरवपक्षी पक्षीयः आसीत् इदानीं पाण्डवपक्षीयः अस्ति
सम्यक् सम्यक् सो अत्र पक्ष इति अस्ति चेत् पक्षे
पक्षे
युयुत्सुः पूर्वं कौरवपक्षे आसीत् इदानीं पाण्डवपक्षे अस्ति पक्षीयः इति विशेषण युयुत्सुः सो दिस् इस् एन् अब्जेक्टिव् अत्र देशीयः इति वदामः खलु भारतीयः इति तादृशम् अवगच्छन्ति
इत्युक्ते ग्रूप् खलु भगिनि ग्रूप्
पाण्डव कौरव सैड् एवमपि वदामः खलु शुक्लपक्ष कृष्ण दट् सैड् इति भारतीयः इति वदामः खलु अहं भारतीया अस्मि
पूर्वं कौरवपक्षीयः
कौरवपक्षीयः एव पाण्डवपक्षीयः अत्र सामान्यः अङ्गराजः अपि च खिन्नः सन्तुष्टः बालः युवकः देर् आल् अब्जेक्टिव्स् परन्तु प्रदेशः इति स्थलम् अस्ति सो अतः प्रदेशे अस्ति
भगिनि षष्टवन् पाण्डवाः वनम् आसन्
वने आसन् वने आसन् इन्द्रप्रस्थे अत्र सप्तमी विभक्तिः अपेक्षिता
ओके
धन्यवादः
युयुत्सुः इस् अ पर्सन् हू इस् डिसैडिङ्ग् टु फैट् युयुत्सुः योद्धं यः युद्धं कर्तुम् इच्छति सः कौरवपक्षे अस्ति अथवा सः कौरवपक्षीयः
युयुत्सु इति योद्धा भवति
योद्धः युयुत्सुः
योद्धा योद्धा एव बिकास् योद्धा इति योद्धृ ओके इट्स् ओन्लि योद्धा
ओके सो वी आर् टाकिङ्ग् अबौट् वन् एकवचनम्
वन् एकवचनं सम्यक् योद्धृ इति मूलरूपं योद्धा
योद्धा
योद्धा पूर्वं कौरवपक्षीयः आसीत् इदानीं पाण्डवपक्षीयः अस्ति श्रीनिवास महोदय प्रश्नः वा सम्यक् सो अत्र पक्षीयः इति वदामः चेत् ही इस् आफ् दट् पक्षी लैक् न अहं भारतीया भारतीया मीन्स् ऐ एम् डिस्क्रैबिङ्ग् मैसेल्फ् एस् एन् इण्डियन् भारतीयः देशीयः लैक् दट् but if it is just so in bharatiya let's say aham deshiya then it is deshiya is I am already deshiya aham deshiya asmi but if it is deshah then it is deshe अस्मि, अहं भारतदेशे अस्मि, लैक् देट्. सो अत्र सो कमिङ्ग् टु पक्ष, सो इफ् इट् इस् कौरवपक्ष पक्षः, पाण्डवपक्षः, देन् इट् इस् पाण्डवपक्षे. युयुत्सुः पाण्डवपक्षे आसीत् इदानीम्, ऐ मीन् कौरवपक्षे आसीत् इदानीं पाण्डवपक्षे अस्ति. इफ् इट् इस् पक्ष, इट् इस् पक्षे.
Where is the differentiator? Is differentiator yaha is the differentiator or pakshi yaha is the differentiator?
Yaha is the differentiator. E-E-ya.
So one is belongs to, other is at or in.
Yes.
Okay. Yaha is the differentiator. That's what I was trying to figure out. Okay.
Yeah. Actually, it is E-E-yaha. E-yaha is the differentiator. E-yaha. Like, atra api bharat E-yaha. E-yaha. Desh E-yaha. So it is समापयामः.
अत्र एकनिमिषं, युयुत्सुः इत्युक्ते यस्मिन् योद्धे युद्धायाम् आशा अस्ति सः युयुत्सुः खलु.
युद्धं कर्तुम् इच्छति, यः युद्धं कर्तुम् इच्छति सः, अथवा युद्धं कर्तुम् इच्छा अस्ति. सम्यक्.
युद्धः, युद्धः इति युद्धः, योधः इति सोल्जर् खलु. अस्तु,
युद्धं, युद्धः न युद्धं, नपुंसकलिङ्गपदं
युद्धं, युद्धं योधः,
योधः. अस्तु भगिनि, समापयामः, समयः अभवत्. अस्तु,
एकनिमिषम्. How do you complete that sentence, 8?
Kim?
The complete sentence, can you say it?
Yuyutsuhu kauravapakshiyaha asit, idanim pandavapakshiyaha asti.
Okay.
Yuyutsuhu itite yodha.
Okay.
Asta.
Dhanyavada.
Dhanyavada. Om sarve bhavantu sukhinah. सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओं श्रीगुरुभ्यो नमः. हरिः ओम्.
धन्यवादः
भगिनि, पुनर्मिलामः.